Lesson 15, Exercise 2, pages 125 and 126. Kavinam sabhayam upavishya sahanrupaha etasya kaveh kavyanam gunan paryaikshat. Kavyeshu gunan drushtva prasannaha sahanrupaha etasmai kushalaya kavaye बहुधनं प्रायच्छत्। यदा कश्चित् भर्ता भार्याम् अवगणयति तदा सा अपि तं भर्तारं मूर्खं मत्वा अधिक्षिपति। शास्त्राणि प्रदातुं गुरवः न शिष्याणां गृहाणि गच्छन्ति किन्तु शिष्याः एव गुरोः गृहम् आगत्य शास्त्राणि अधिगच्छन्ति। अद्य तु यदि शिष्याः विद्यालयं न आगच्छेयुः गुरवः क्व भवेयुः। सन्नृपो मुनिम् उपगम्य तस्मै बहु कनकं प्रायच्छत्। मुनिः तत् कनकं कराभ्याम् आदाय भूमौ प्राक्षिपत्। सः अवदत्, कनकं दृष्ट्वा न अहम् विषीदामि न वा प्रसीदामि। किं मे कनकेन? तव कनकम् तव एव प्रासादे विश्राम्यतु इति। यथा वृद्धाः आचरन्ति तथा बालाः अपि व्यवहरन्ति। यतः बालाः वृद्धान् अनुसरन्ति ततः वृद्धाः क्वचित् बालान् परिहरन्ति, बालाः च तान् परिहरन्ति। यदा स पुत्रः वृद्धं पितरं मातरं च वने एव परित्यज्य चार्व्या भार्यया सह आशुना अश्वेन ग्रामाय प्रातिष्ठत तदा तौ वृद्धौ पितरौ पुत्रम् अध्यक्षिपताम्। अस्माकं नृपस्य वीरासेन तम् अरीणां देशम् अभ्यधावत् तान् च सर्वान् अरीन् पराजित्य तेषां सर्वान् ग्रामान् अवादहत्। यदा स भर्ता भार्यया सह व्यवदत् तदा सा कुशला नारी तम् आदिशत्, एतस्माद् गृहात् अधुना एव बहिर्गच्छ इति। यदा भर्ता गृहात् निर्गत्य कूपाय प्रातिष्ठत तदा सा तस्मै अवदत्, मम कूपे अपि तव शरीरं द्रष्टुं न इच्छामि, अन्यत्र गच्छ इति। नरस्य जीवने सुखानि च दुःखानि च सर्वदा परिवर्तन्ते। सर्वे जनाः कदाचित् सुखं विन्दन्ति कदाचिच्च दुःखम् अनुभवन्ति। किन्तु जनाः सुखम् अधिगन्तुं दुःखं च परिहर्तुम् इच्छन्ति। मुनयः तु सुखं च दुःखं च परित्यज्य वनम् एव अधितिष्ठन्ति। तेषां मतिः सुखानि च दुःखानि च विस्मृत्य ईश्वरे एव विश्राम्यति। यत् सुखं मुनयः ईश्वरम् अनुभूय अधिगच्छन्ति तत् न कदापि परिवर्तते। कश्चित् खञ्जः नरः एतत् नगरम् अधितिष्ठति। स यदा यदा मार्गेण गच्छति तदा तदा क्षुद्राः बालाः तं दृष्ट्वा तम् अनुसरन्ति परिहसन्ति च। यद्यपि सः खञ्जः तान् बालान् कराभ्यां प्रहर्तुं न प्रभवति तथापि सः तान् अधिक्षिपति। यद्यपि मातरः ताः न अनुमन्यन्ते तथा अपि ताः बालाः बालैः एव सह खेलितुम् इच्छन्ति। यदा ताः बालैस्सह विवदन्ते तदा एव ताः बालाभिस्सह खेलन्ति। यदा सः गुरुः आगच्छत् तदा तं दृष्ट्वा बालाः उदतिष्ठन् यदा ते गुरुं प्राणमन् तदा सः अभाषत् हे बालाः उपविशत् शास्त्राणि अवगन्तुं यूयम् अत्र आगच्छथ तथापि युष्माकं मतिः अन्यत्र एव परिभ्रमति इति बालाः गुरुं प्रणम्य अभाषन्त हे गुरो त्वम् एव तानि शास्त्राणि पठ तत्र वयं परिभ्रमितुम् इच्छामः यत्र त्वं तव शास्त्राणि च न भवेयुः इति
Lesson 16, exercise 3.